أعرفها من أمها. വാക്കുകാരം പ്രവചിം ഭാഷ്യകാരം പതഞ്ജലിം പാണിനിം സൂത്രകാരം ച പ്രണതോസ്മി നിത്യം. പാഠേ സർവനാമ ശബ്ദാനാം പ്രക്രിയ ഉച്ചമാന ആസീത്. പ്രായ ശബ്ദസ്യ പ്രക്രിയ ഗതപാഠേ ഉക്ത. അസ്മിൻ പാഠേ അന്യേഷാം ശബ്ദാനാം പ്രക്രിയാം പ്രദർശയാമി. तत्र एते चत्वारः तद् एतद् यद् किम् एतेषां सर्वनामसंज्ञा अस्ति. येषां सर्वनामसंज्ञा अस्ति विचार सर्वनामसंज्ञा तेषां तत्र कानिचन तस्मात् केचन प्रत्ययाः परिवर्तन्ते. Now, some pratyas change, like Atamaya Bhakti Bahuvachana and these places. Now, let us take Etad Shabda. Etad. Atamaya Bhakti Bahuvachana, Etad Su. जदादीनाम् अह इति सूत्रेण दकारस्य स्थाने अकारः भवति. यदादीनाम् अह इति सूत्रेण दकारस्य अकारः. ततः परम् अतो गुणे सूत्र अतो गुणे पररूप. सो द लेटर अकार रिप्लेसेस बोथ अकार. अतः एत रिमाइंड्स एत प्लस. नौ तदोह सह सौ अनन्त्ययोः. बै दिस रूल द तकार गेट्स सकार ए स प्लस स देन आदेश प्रत्ययोः. बै दैट सकारस्य स्थाने षकारः एष. देन दिस सकार गेट्स रेफ विसर्ग. सो बिकम्स एषः. सो दिस तदोस्तस्सावनन्तयोः. दिस रूल इज एप्लीकेबल ओनली वेन द सु प्रत्यय मीन्स प्रथमा विभक्ति एकवचन प्रत्यय फॉलोस. तदोः सह सौ सौ अनन्तयोः सावनन्तयोः अत्र सन्धिः वर्तते. सौ इति पदं सौ परे भिन्न सु प्रत्यय फालो. सौ सप्तमी भक्ति असु. अतः सु प्रत्यये परे सकारस्य सकारः एवञ्च एषः इति रूपम्. Is it audible? I think some message is audible. Then in Yuvatana, how is it that Sarvatra, in all vibhaktis, this rule is applicable. Tadadinam aha. Sarvatra api dakarasya sthane akaraha bhavati. Ataha yadyapi ayam dakarantaha shabdaha tathapi akaranta shabdavat atra prakriya bhavati. Imartam sarvatra api tadadinam aha iti sutram pravartate. Therefore, again, this vibhakti also Dakarasya sthane akaraha, a represents dakara, eta a, then ato gune iti sutrena pararupam, now eta, eta plus au, vritti santhihi etau. So it is like sarma shabda. As we did sarvaha sarvau etau etaha sarvepi tad bhavatu etad bhavatu or yad bhavatu sarvatrapi tadadinamaha adi sutrena akara bhavati etaha akaranta shabdavadeva prakriyam atra prapnoti rupani prapnoti. So again in bahuvachana also eta plus e ete. Everywhere we have to apply tadadina maha. So dakaranta becomes akaranta shabda, then we have to add pratyaya. Ataha eta plus e ete. Eta plus am dvitiya bhakti. Eka vachana pratyaya. Eta plus am etam. Atra etam. Then eta plus au etau. Eta plus as it is the, but it becomes an. So etan as in sarvan. In sarva shabda we did sarvan. Tathaiva atrapi etan. Then ina pratyaha eta plus ina etena. Eta plus bhyam eta bhyam. Dirgha bhavati purvasya eta bhyam. Bahuvachanam eta plus ais etaihi vṛddhihi. Then eta plus mai etasmai. Then again bhyam eta bhyam. Eta plus bhyas ete bhyah. That akara gets ekara. Ete bhyah. Sarve bhyah, rame bhyah. In all akara and the sabda, we applied this. Bahuvatane chalyet bahuvatane that akara gets ekara. Ataha atrapi etebhyaha. Then etasmat etabhyam. Bhyam pratyaha. Etebhyaha. Etasya. Os etayoho. Eta plus os. Then like as we did in sarvayoho or ramayoho, atra akarasya sthane ekaraha bhavati. Ete os. Then etoya vayavaha. Etai os etayoho. Etai os etayoho. Then eta plus min etasmin. Etayo, etasya etayoho, eta plus sam, देन एत्वा एते साम सकारस्य सकारः मूर्धन्य सकारः देखो एते शाम एतस्मिन् एतयोः ओस् प्रत्ययः देन सु बहुवचन प्रत्ययः एत प्लस सु अगेन एकार एते सु देन षत्व एतेषु इत्येवम् अत्र प्रक्रिया Yeah, there are two forms in sixth divachana. Yes, it is there. But I didn't mention here. There is a adesha again. Eta yoho, ena yoho, and that there are two forms. The eta will be replaced with ena. Okay. Then kim shabdah atra kimaha kaha di sutram likhitam asti. So yad shabdasya vishesha nasti, as we did etad shabda, but this rule is not applicable. Tadoho saha sau anantayoho, this rule is not applicable to yad because there is no sakara, sorry, there is no takara in yad shabda. Tad shabde takara asti, etad shabde takara asti, ataha takara asya sthane sakara bhavati. Into yad shabde takara nasti, ataha idam sutram na sambandhyate. Venta yaha iti yadadi namaha, then it becomes yaha. Yaha yau ye yam yau yan ityam rupani prapnoti. Astu. कुत्र अतो गुणे प्रवर्तते कुत्र न प्रवर्तते इति ज्ञातुं शक्यते एव. अतो गुणे अतो गुणे वस्तुतः संधि सूत्रमस्ति. अपदान्तस्य अतः गुणे परतः अत्र उदाहरणार्थम् एतद् एतद् औ इत्यस्ति. अत्र तकार परम् अकारः अस्ति. अत्र दकारः वर्तते. दकारस्य स्थाने तदादीनामः इति सूत्रेण अकारः आदिश्यते. नौ इदानीं किमस्ति हियर् इस् अकार एत एण्ड्स् वित् अकार फालोड् बै अनदर् अकार एण्ड् दिस् अकार इस् नाट् एट् द एण्ड् आफ् पद अपदान्त अकारः अयम् अपदान्त अकारात् गुणवर्णे परतः. गुणवर्णः नाम गुण इस् संज्ञा टेक्निकल् टर्म् अदेन् गुणः अ ए एण्ड् ओ एते त्रयः वर्णाः गुणसंज्ञां प्राप्नुवन्ति. अतः अपदान्त अकारात् एतेषु कश्चन वर्णः अस्ति चेत् अतो गुणे इति सूत्रं प्रवर्तते. अत्र सवर्णदीर्घसन्धिः न भवति, वस्तुतः अकारातकारे परे सवर्णदीर्घः भवितुम् अर्हति, किन्तु यत्र अतोगुणे इत्यस्य अवकाशः अस्ति तत्र सवर्णदीर्घसन्धिः न प्रवर्तते. सो इट् इस् अ बाधक, अतोगुणे इस् अ बाधक आफ् अकस्सवर्णे दीर्घः. अतः सो वेन् एवर् देर् इस् अपदान्त आकार वेन् इट् इस् फालोड् बै एनी आफ् दि लेटर्स् तदा अतोगुणे इति सूत्रं प्रवर्तते. ओके, केन् यू प्लीस् एक्स्प्लेन् वै षत्व इन् सप्तमी बहुवचनरूप. ओके, वै षत्व एतद् प्लस् देन् यदादीनामः एत प्लस् अ देन् अतो गुणे इति पररूप एत नौ बहुवचने झल्ये सूत्रेण रामशब्द सो द अकार एकार अकारस्य स्थाने एकारः एते प्लस् सु नौ द आदेशप्रत्ययोः इस् अप्लिकेबल् इन्कुभ्याम् इत्युक्तं तत्र इनः परम् अथवा कवर्गात् परम्. यदि आदेशस्य अथवा प्रत्ययस्य सकारः वर्तते तर्हि तस्य सकारस्य स्थाने षकारः मूर्धन्यषकारः भवति इति आदेशप्रत्ययोः इति सूत्रस्य अर्थः. आदेशप्रत्ययोः इति सूत्र वर्षत्व सकार इस् फालोस् इन् आर् कु, कु मीन्स् कवर्ग प्रत्ययोः. In this example, ekara asti, ekara is in. In is a pratyahara, ikara arabhya, e, dhitiya varna, ikara arabhya, even, look, aong, ayout, hayavarat, lan. So, lan, iti sutra, lan sutra, nakara asti. So, in includes all these letters. अतः एकारः अपि इण्वर्णेषु वर्तते, तस्मात् इण्वर्णात् परम् अत्र सकारः अस्ति, तस्य सकारस्य मूर्धन्यः षकारः भवति, देर्फोर् एतेषु इति रूपं सिद्ध्यति. एवमेव एतेषां षष्टिभवचनासु एवमेव प्रक्रिया. एता एते ए एते अस्तु प्रथमा विभक्ति बहुवचनं. प्रथमा विभक्ति बहुवचने कः क्लेशः? एत प्लस् इ गुण एते गुणसन्धिः, प्रश्नः कः न जातः.
नमस्ते महोदय. यद् किं द्वयम् इत्यादीनां किमर्थं 72106 नाट् अप्लिकबल्?
72106
इस् नाट् अवैलबल् यु सेड्, बट् आन् वाट् बेसिस्?
ओके ओके, सी द you can read this tadoho. So takara dakara yo. The word tadoho means takara dakara yo. So the takara dakara yo sakara bhavati. Sakara pratamaha bhakti. So but in yad shabda, so this takara actually will be replaced with takara. Tadadi namaha applicable here. So you won't find takara or dakara in this shabda. After applying tadadi namaha. Now you can see dakara, but after applying tadadi namaha, you won't find takara or dakara. Evameva kim shabde api. Kim shabde api takaraha dakaraha va nasti.
Kim shabde purvameva na drishyate.
Correct, satyam. Purvameva na drishyate. Yad shabde yadyapi atna dakara asti, though it ends with dakara. So by tadadi namaha, this dakara will replace dakara. Ataha nasti. But in tad and etad, even after applying tadadi namaha, the takara asti. And atrapi takara asti.
अवगतम् धन्यवादः.
परस्परं किं शब्दः etat shabde, as it was mentioned, there are two forms which you didn't mention. So even in Dutya Bhakti, it becomes enam. There is optionally eta will be replaced with ena. And it happens in particular meaning. Therefore, I didn't explain that. This is called anvadesha. And anvadesha happens only in particular meaning. Ataha tadvishayatra mayana uktam. Now let us go to kim shabda. Yad visheshaha nasti, just you have to apply tadadi namaha, and then it like sarva shabda. And then kim is one rule is applicable. Kimaha kaha. Kimaha sthane kaha iti adesha bhavati. Ataha, so though it is akaranta, again it becomes akaranta. After doing this adesha, it becomes ataranta. Ataha sarva shabdavat eva rupani praknoti. Kim plus su. Now kimaha kaha. Kim ityasya sthane ka iti adesha bhavati. So ka plus su. Now it is like sarva shabda, ataranta sarva shabda. No, atrapi ka iti akarantattvam asti. So, sakaraha, sakarasya repaha, then visarga kaha. Evameva kim kau. Ka plus au kau. Vriddhi sanchihi. Kaha, kau, then bahuvachana. Bahuvachane ka plus e gunaha k like sarve. So sarvam samanam. Only we have to apply this sutra first. Kimaha kaha. Then it is very easy as sarva shabdavateva atrapi prakriya visarati. Kaha kau k. Then ka plus am kam. Kam. Kau, kan, ina, ka, ina, kena, ka, bhyam, ka, bhyam, dirgha, kena, ka, bhyam, taihi, kasmai, ka, bhyam, kebhya, ka, smat, kasmat, ka, bhyam, bhyam is a pratyaya, atrasti, then kebhya, kasya, kayoho, like sarva yoho, ka os, then ekara, ke os, yam bhavati, ka os, ekara, के उस इन एचोयवायावह कयो हो कयो हो क साम लेन के साम बहुवचने छंदे रीते में एकार है के साम लेन सत्व आदेश प्रत्ययो हो विच इज एक्सप्लेन्ड के साम तस्मिन कयो हो लेन इन बहुवचना केशु अत्रापि आदेश प्रत्ययो हो इतने ना सकारस्य शकार मूर्धन्य अतः केशु अत्र विशेषः नास्ति जस्ट दिस रूल वी हैव टू अप्लाई किमः कः इत्यस्य अन्वयः करणीयः अस्तु
Hi, good evening. I've got a couple of small questions. Number one, since Panini is trying to be completely brief and totally abbreviated in his way of thinking, the Kim Shabda itself could have been simply Kaha, so that you can get rid of the Sutra Kimaha Kaha. You won't even need that, unless it is used someplace else. So that's one question. The other one is, in some places, is Kim used as an avyaya? Or am I thinking wrong?
Kim, I have to check whether it is in avyaya list.
For example, we ask, Kimartham, Kimitra, Atra, Agadha, you know.
Okay. No, that there it is, God, that is the answer to your first question. When in Napumsakalinga, we use the word kim only, kim ke kani, kim pustakam.
Okay.
When we have to do samasa, as it is kimartham, here it is a samasa. Then also the kim remains, means pratipadika, always pratipadika remains. The Pratipadika itself is ka, there should be a rule to replace ka with kim.
So then you got to have another rule cooked up to replace the kima ka.
Correct. So we need opposite rule, kaha kim. So from ka to we have to replace kim. So somehow this rule is needed. Even in Napumsakalinga it is kim, Vekavachana Rupam is kim. So if the Pratipadika is ka, then there should be a rule to replace this ka with kim.
Okay, got it. One more quick general question. Is there a way we all of us can see the questions of other members who take part in the classes, or you can't?
Okay, means you can't read this questions.
I cannot see anybody else's questions, or is there a way to do that? Because we had the same problem on the Kosha Darshana webinar.
I don't know exactly. We'll mail to Samyaji or someone.
Okay, then
only we can send these questions. Okay.
Okay. Thank you.
Parvatana Sanji, question asked you?
Yeah. कल्याणकृष्णमहोदयस्य प्रश्नम् अनुसृत्य मम प्रश्नः किम् इत्युक्ते नपुंसकलिङ्गे एव सः अव्ययः स्त्रीलिङ्गे पुल्लिङ्गे अव्ययः न इति प्रतिपादयति वा
न अव्ययं न नपुंसकलिङ्गरूपम् अस्ति खलु
भवतः नाम किं तत्र किम् अव्ययं वा नामपदं वा
अत्र नाम किम् तत्र नामपदम् यतः नाम इति नपुंसकलिङ्गे वर्तते खलु
परन्तु किम् अव्ययैव दृश्यते यत्र कुत्रापि
अव्ययैव इति पश्यामि अव्यय किं जस्ट् मिन् पश्यामि वेदर् देर् इस् अव्यय किं बिकास् सच् अव्यय आल्सो पासिबल् फॉर एग्जाम्पल अव्यय लाइक अस्ति अस्ति इति अव्ययमपि अस्ति अव्यय इस् आल्सो देर् लाइक अस्तित्व इन् अस्तित्व अस्ति इस् अव्यय
प्रयोगे अव्ययः प्रयोगे अव्ययः व्याकरणे अव्ययः न
द्वयमपि समानमेव भवति किन्तु किम् इति अव्ययम् अस्ति वा अहं दृष्ट्वा वदिष्यामि अव्ययम् अस्ति वा इति मेनि अव्ययस् टु चेक् अहं दृष्ट्वा अग्रिमपाठे वदामि किम् इति अव्ययम् अस्ति वा न वा इति मयापि द्रष्टव्यम्
इत्येव अस्मत् शब्दविषये न परन्तु अहं पृष्टवान् नमस्कृत्य इत्युक्ते उपसर्ग इव दृश्यते परन्तु नमः उपसर्गः न नमस्कृत्वा इति भगवद्गीतायाम् उपयोगमस्ति परन्तु उपसर्गं चेत् कृत्वा कथम् आगच्छति पाणिनि
किं भवति पाठनकाले सुखतया अवगमनार्थम् उपसर्गयोगे तत्र लेप् भवति इति वदन्ति वस्तुतः पाणिनेः कृतं तथा न भवति अतः यत् पाठनकाले उक्तं तदेव अवलम्ब्य सूत्रमेवम् अस्ति इति कदाचित् न चिन्तनीयं बिकास् सूत्रे सुखति प्रादयः सूत्र इन्क्लूड्स् कु गति अण्ड् प्रादयः गति इस् आल्सो देर् अतः वित्तवर्ण गतिसंज्ञा इट् गेट् समास अण्ड् समास द क्लागेट् लेप् सो इट् इस् नाट् ओन्ली वित् उपसर्ग देर् आर् मेनि सच् वर्ड्स् वित् विच् द समास इस् पासिबल् अण्ड् वेन् एवर् दिस् समास इस् अप्लैड् द त्वा विल् बि रिप्लेस् विद् लेप्
पुरस्करोति तिरस्करोति तत्र दृश्यते पुरः तरः अव्ययम् उपसर्ग एव इति दृश्यते नमस्करोति तत्र इति चेत् नमस्कृ इति धातु वा धातु एव नमस्कृ
किमर्थं पुरस् इति भिन्नं नमस् इति भिन्नं पुरस् अण्ड् नमस्कृत्य पुरस्कृत्य उभयं समानं पुरस् इति भिन्नम् अस्ति कृ इति धातुः त्वा इति स्थाने लेप् प्रत्ययः भवति
तिरस्करोति तिरस्कृत्य तिरः
तिरः इति पृथगेव तिरः करोति किन्तु दिट् इस् अ रूल् बै विच् दट् इट् इस् सकार तिरस् इति आगच्छति सकारस्य कृते अन्यथा जनरलि वाट् हेपन्स् जनरलि वि हेव् टु अप्लै तिरः करोति बिकास् वेनेवर् देर् इस् सकार जनरलि फार् एक्साम्पल् काकः कृष्णः लैक् दिस् वि प्रनौन्स् बट् दीस् आर् सम् एक्सेप्शन्स् to that rule. There is a kuppo kappo is a general rule. But it has many exceptions. These are exceptions. Tiraskaroti, namaskaroti. These are exceptions to kuppo kappo, which is a general rule. And all these exceptions you will get in one place. Even if you want to read in Siddhanta Kaumudi, then you can... you can see the visarga sandhi prakarana in Siddhanta Kaumudi.
Kaumudi visarga sandhi prakarana.
Visarga sandhi prakarana. All these exceptions are listed in visarga sandhi prakarana.
Parantu mama sandeha idanim api asti kimartam namaskritya namaskritya upasarga upasarge purve tya ityeva lyapyeva.
न तथा नास्ति इति पाणिनेः नियमः नास्ति उपसर्गपूर्वम् अस्ति चेत् समासे अनैपूर्वः त्वः लेप् इति पाणिनेः सूत्रं समासे इत्युक्तम् उपसर्गे इति पदं नास्ति सूत्रे कथम उपसर्गः इति वदन्ति नाम सामान्यतः तत्र अवगमनं भवतु इति पाठनकाले उपसर्गयोगे जतु इति वदन्ति. पाणिनेः सूत्रं तथा अस्ति इति न चिन्तनीयम्.
पाणिनेः सूत्रं भवान् लिखतु तत्र तद् अस्मिन् विषये.
एवं समासे
समासे
अनञ् पूर्वे अत्र अ नञ् समासे नञ् क्तो लेप् इति सूत्रं सूत्रसङ्ख्या अहं न जानामि
द्रष्टव्यं
सङ्ख्याम् एकं दृष्ट्वा वदिष्यामि. समासे नञ् पूर्वे को लप् अत्र 7137 तत्र अतः
धन्यवादः धन्यवादः.
योगेश जी प्रश्नः अस्ति वा? ऐ एम ट्राइंग टू अनम्यूट बट इट्स नॉट वर्किंग. या इट्स नॉट वर्किंग योगेश जी. ऐ एम ट्राइंग टू अनम्यूट बट आई डोंट नो.
Hi, I'm not trying to hold your time, but okay. in a sentence like Saha Atra Agadaha Kim, that's a good correct sentence, but there that Kim has got to be Avyaya. There is no other way to explain it.
Okay. Saha Atra Agadaha.
Yeah.
Yeah, right. Because when any word, when it is not visheshana, then it gets napumsakalinga. In general, it gets napumsakalinga. When it is not a visheshana, something else, so it's not qualifying some word, then it gets napumsakalinga. Napumsakalinga is a ucharga, it's general.
Okay.
So if there is something to qualify, then only it gets the linga based on the visheshya. Otherwise, always the such words they get namaskar linga.
So, but in this case, is that a correct sentence or not?
Saha atra agataha. Yeah, it's correct because you are not qualifying anything with the word kim. I'm not asking saha kaha.
Right, right. I understand.
सः अत्र
नो प्रॉब्लम लेट मी लेट अस नो लेटर इट्स ओके
या या बिकॉज़ इट्स एज आई सी वी आर नॉट क्वालिफाइंग एनीथिंग विद द वर्ड किम मींस द वर्ड्स व्हिच आर यूज्ड सः अत्र आगतः.
Yeah, the only point is the word Kim there, it does not need to be declined in any way whatsoever. All the declinations are wiped out. You don't need it.
No, I didn't get it. No.
It's okay. I mean, the vibhakti nam vishaye kimaha na prayoga asti. What kala that Kim avyaha bhave iti mama vichara.
अहं पश्यामि अहं दृष्ट्वा वदामि किम् इति अग्रिमपाठे वदामि.
ओके.
अस्तु कूस्थाने किं कुत्र आगच्छति चेत् तत्र एव उभयम् उत्तरम् अहं दृष्ट्वा वदिष्यामि विदर्देश अव्यय अव्ययः चेत् बिकास् हव् टु सी द लिस्ट् आफ् अव्यय अस्तु एवञ्च तत्र रूपाणि दिस्वान् सः तौते तं तौतान् तेन ताभ्यां तैः तच्छब्द एतच्छब्द यद् शब्द एण्ड् किं शब्द तेषां रूपाणि अत्र लिखितानि अस्तु ततः परं नौ पुल्लिङ्गे रूपाणि दृष्टानि इदानीं स्त्रीलिङ्गे पश्यामः स्त्रीलिङ्ग फार्म्स् आफ् तद् एतद् यद् किं स्त्रीलिङ्गे कथं प्रक्रिया इति पुनः इदं बहु सरलमेव अस्ति बिकास् अगेन् देविकम् आकारान्त स्त्रीलिङ्गे एतानि सर्वाणि अपि आकारान्तवत् रूपाणि प्राप्नुवन्ति लैक् आकारान्तसर्वा शब्द विद्युदाकारान्त सर्वा शब्द तद्वदेव अत्रापि प्रक्रिया भवति फार् एक्साम्पल् तद् शब्द तद् प्लस् अत्रापि कदादीनां अह इति सूत्रेण दकारस्य स्थाने अकारः देन् ओके तदादीनामः इति सूत्रेण दकारस्य स्थाने अकार देन् पुनः पररूपम् अतो गुणे इति सूत्रेण अतः त नौ इन् स्त्रीत्व यदा स्त्रीत्वं विवक्षितं स्त्रीत्वविवक्षायां अत्र टाप् प्रत्ययः भवति टाप् इति स्त्रीप्रत्ययः टाप् इति स्त्रीप्रत्ययः एण्ड् इन् टाप् प्रत्ययः आकारः अवशिष्यते तुल्लिका रिमैन्स् सो वेन् स्त्रीत्व इस् इण्टेण्डेड् then we have to apply this sri pratyaya atah tra a plus c now I am adding this sri pratyaya this ta now savarna dirgha sandhi so it became ta s now as we did previously the takara gets sakara tadosha savanantayo therefore it becomes sa sa and su and in sarva shabda or in rama shabda tatra sakarasya su pratyayasya lopaha bhavati anyabhyo dirgha sutisya pratam hal iti sutrena sakarasya lopaha bhavati rama name ramaha sarva sarve sarvaha tatra su pratyaha nasti samupyate evameva atrapi su pratyayasya lopaha tah sa इति अवशिष्यते एवञ्च प्रथमासक्तेः एकवचने तच्छब्दस्य सा इति रूपम् सो तद् प्लस् देन् तदादीनामः सूत्रेण अकार देन् पररूप स प्लस् देन् स्त्रीलिङ्ग रूप यु हेव् टु अप्लै अस्ति प्रत्यय हियर् सिन्स् इट् इस् अकारान्तनौ टाप् प्रत्यय इस् अप्लिकेबल् सो त प्लस् अ देन् सवर्णयुज्य सन्ति ता प्लस् देन् सु प्रत्यय गस्तु रूप अतः सा देन् तदोस्थस्थापनन्त्योः जनेन सकारस्य सकारः सो सा इति रूपं भवति प्रथमदत्तेः एकवचने ओके ओके केन् यु प्लीस् ट्रै द सूत्र See, Sutra, this Hanyabhyo, we studied this Sutra, please check the Sutra Sankhya. No? Hanyabhyo. This is how it begins. By this Sutra, Supratyase Ropa. Hanyabhyo. केन सूत्रेण बैमित् सूत्र टाप् अजाद्यतः टाप् सूत्र फर् टाप् प्रत्यय ऐ एम् रैटिङ्ग् हियर् अजादि अजाद्यतः अजाद्यतः टाप् इति सूत्रम् ओके सो अजाद्यतस्टाप् फर् टाप् हल्याभ्यो दीर्घात् स्थितिस्य प्रत्यं हल् इति सूत्र डुडु सुलोप अत्र अस्ति सुलोप सूत्रं सुलोप ओके हा अस्तु सा अग्रे समानं वि हाव् टु डु like this everywhere means we have first we have to apply we show one more example tad plus au then we have to apply tadadi nam aha so ta plus a then ato gune त प्लस् औ देन् वि हाव् टु अप्लै स्त्रीप्रत्यय सो त प्लस् अ au and actually this au will be replaced with e which as we did in sarva shabda arama shabda so a becomes e here then savarna dirgha so ta plus e te da te iti rupam अतः सा ते ताः लैक् सर्वा शब्द सर्वा सर्वे सर्वाः सा ते ताः तां ते ताः लैक् सर्वया हियर् इस् तया तया ताभ्यां ताभिः तस्यै ताभ्यां ताभ्यः तस्याः ताभ्यां ताभ्यः तस्याः तयोः तासां तस्यां तयोः तासु इत्येव सा हौ डु यु गेट् सा फ्रम् तास् ओके सि तद् प्लस् पुनः अहं दर्शयामि देन् तदादीनाम् अह त प्लस् देन् पररूप त प्लस् देन् टा सो त प्लस् आ प्लस् देन् अतस्सवर्णे दीर्घः ता प्लस् नौ तदोः सः सौ अनन्त्ययोः तदोः 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 सावनन्त्ययोः इट् वास् इन् द प्रीवियस् स्लैड् सो बै दट् रूल् तकारस्य स रिप्लेसस् त Therefore it becomes sa. Sa plus su. Now this sakara disappears, lopa. Halnyabhyo dirgha sutisya prattam hal. Halnyabhyo. Ittanena lopa. तदोः हनुयाभ्यो सब्लिगेबल् लोप इति क्लियर् हनुयाभ्यो इस् अप्लिकेबल् रूल् एण्ड् तदोस्तस्थावनन्तयोः सब्लिगेबल् हियर् स रिप्लेसस् त And the top, I mentioned, this is Ajadita's top sutra. Ajadita's top. In Tritiya Vibhakti, see when it became, it's like Ramaya, with what we did in Rama Sarva Shabda, let me take this one only. So, Ta plus A, then it gets Ekara. It becomes like this, Te plus A, then Echoya Vayavaha Taya. So all these sutras you will get in the previous slides because I mentioned all these. It's a explain Sarva Shabda and Rama Shabda. Okay. Astu tahi atra samapayamaha samayaha jataha. So It was delayed today because I couldn't log in to the website. Therefore, I couldn't start on time. So, avashishta shabdanam vishaye aham agrima pathe vadami and napumsaka linga rupani. Etesham eva napumsaka linga rupani tad vishaye api vadami. Then maybe we will complete this in the next class. Then I am going to sankhyamataka shabdas. For example, ekam, dve, trini, chatvari, so linga and vachana, how to use sankhyavachaka shabdas. That I am going to explain after this sarvanama shabda. Then I am going to avyayas. I had my questions today also. So we have to know the types of avyayas and there are some rules related to avyayas. That also I am going to explain later. Astu, tarihatra samapayamaha. वक्तकारं प्रवृत्तिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्